जातवेदसे सुनवाम सोममराति यतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वाधारेव सिन्धुम् दुरितात्यग्निः ताभग्निवह्नाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टा दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुतरसितरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पोश्च पृथ्वी बहुला न उर्वी भवतोकायतनयाय संयोः विश्वानि नो दुर्गः जातवेदः सिन्धुम् न नावादुरितातिमर्षि अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् बोध्यमिता तनूना ृतनाचितगुंसहमानमुग्रमग्निगुम्भुवेव परमात् सदस्तात् स नः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषिखमेभ्यो अध्वरेषु सनाच्च होतानव्यश्च सत्सि स्वाञ्चाग्नेयतनुवम् विप्रयस्वास्मभ्यम् च सौमगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्टमपि संवसा गो वैष्णवीम् लोक इह मादयन्ता